एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा कलाक्षेत्रस्य समस्यानाम् समाधानाय आत्मनः सदैव तत्परता स्थिति भासते। बालबाटार वर्तिनी प्रधानमन्त्री निवासे कलाकर्मी विषा ह्य सम्पन्नायाम् अन्तर्क्रियायाम् प्रधानमन्त्री देउवा निर्वाचने युव सन्तते सहभागिता बलवती विधेयति सन्देशम् प्रवाहयितुम् कलाकारान् अन्वरुणात। तदवसरे सहभागिनः कलाकारः चलचित्र छायांकनस्य छायांकनाय अनुदानस्य चलचित्रस्य माध्यमेन पर्यटन प्रवर्धनस्य संगीतस्य सर्जनस्य ओटीटी विषय उत्पन्नाया समस्याया समाधानस्य च सम्बन्धे प्रधानमन्त्रिणम् अन्वरुणन्। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति प्रतिगमनस्य संकटस्य विद्यमानतां यावत् वाम लोकतान्त्रिक गठबन्धनम् तिष्ठति। गोर्खा जनपदस्य पालुङटार नगर नगरपालिकायां पूर्वेद्युः आयोजितायां सभायाम् अध्यक्ष प्रचण्डः वासत शान्ति संविधायाः मुख्यकर्तारौ कांग्रेस माओवादी दले एव स्तः इत्यतः अतःपरम् शान्तये संविधानस्य रक्षायै आर्थिक क्रान्तये च वर्तमान गठबन्धनस्य आवश्यकता वर्तते। अध्यक्ष प्रचण्डः कांग्रेस माओवादी दले मिलित्वा देशे शान्ति संविधानं च समभवतामिति चर्चयन् अवदत् भविष्यति आर्थिक क्रान्तिरपि माओवादी कांग्रेस दलाभ्यां मिलित्वा विधातव्या। सभायां नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः संविधानस्य रक्षायै गठबन्धनम् निर्मितमिति अवोचत। वरिष्ठ नेता पौडेलः वर्तमान सत्ता गठबन्धनमेव राष्ट्रं समृद्धिर्दिशि नयतीति न्यश्चिनोत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली निगदति देशे विकासाभियानस्य सञ्चालन समर्था राष्ट्रिय शक्तिः आवश्यकी वर्तते। सिन्धुली जनपदस्य दुधौली नगर पालिकायां ह्य आयोजितायां सभायाम् अध्यक्ष ओली अब्रवीत् राष्ट्रिय स्वाधीनतायाः सार्वभौमसत्तायाः स्वतन्त्रतायाः भौगोलिक्याः अखण्डतायाश्च रक्षणक्षमा शक्ति आवश्यकी अस्ति। निर्वाचन आयोगेन काष्ठमण्डप स्थितानां कूटनीतिक नियोगानां प्रमुखेभ्यः प्रतिनिधिभ्यः मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य विषये आयोगस्य कान्तिपथस्थिते कार्यालये ह्य आयोजिते कार्यक्रमे ज्ञापितं वर्तते। कार्यक्रमे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया निर्वाचनं स्वच्छं स्वतन्त्रं निष्पक्षं पारदर्शी भयरहितं च विधातुम् आयोगेन विहितानि पूर्वकार्याणि ज्ञापयन् अन्तर्राष्ट्रिय समुदायेन प्रापितं सहयोगम् प्रदर्शिताम् सदाशयताञ्च प्राशंसत। प्रमुखायुक्त थपलिया अगदत् विगत निर्वाचनानाम् अनुभवेन आगामिनि निर्वाचने अतिरिक्त सुधाराय सहयोग प्राप्तोऽस्ति। कार्यक्रमे आयोगस्य आयुक्तानाम् उच्चाधिकारिणाम् काष्ठमण्डपवर्तिनाम् विंशते अधिकानाम् कूटनीतिक निकायानाम् प्रमुखाणाम् प्रतिनिधीनाञ्च प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य गृहमन्त्रालयस्य परराष्ट्र मन्त्रालयस्य च प्रतिनिधीनाञ्च सहभागिता आसीत्। निर्वाचन आयोगेन निर्वाचनाचार संहितायाः प्रभावकारिणे अनुगमनाय निर्दिष्टं वर्तते। विगतस्य तुलनायाम् आचार संहितायाः उल्लंघनस्य घटनाः न्यूनायमानाः सत्योऽपि निर्वाचनस्य प्रचार प्रसारयोः अवधौ सम्भाव्याः उल्लंघनस्य घटनाः प्रति आयोगः सचेष्टो वर्तते एवं अनुगमनाय सम्बद्धाः निकायाः निर्दिष्टाः सन्तीति निर्वाचनायुक्तः रामप्रसाद भण्डारी अज्ञापयत्। निर्वाचनाचार संहितायाः पूर्णपालनायै आयोगेन पुनः सर्वे अनुरुद्धाः सन्ति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री जीवन राम श्रेष्ठः जनतायाः समृद्धेः आकांक्षां वामलोकतान्त्रिक गठबन्धनेन पूरयिष्यते इति निश्चिनोति। वामलोकतान्त्रिक गठबन्धनेन ह्य काष्ठमण्डपस्य कलंकी स्थाने आयोजिते मेलन कार्यक्रमे मन्त्री श्रेष्ठः अगदत् नहि सत्ता स्वार्थस्य अपेक्षा अपितु राष्ट्रियावश्यकतायाः कारणेन वामलोकतान्त्रिक गठबन्धनम् निर्मितं वर्तते। प्रतिगमनस्य संकटस्य विद्यमानतां यावत् सत्तारूढ दलानां मध्ये गठबन्धनम् तिष्ठति इति च असौ अभासत। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुँवरः कथयति आर्थिक सामाजिक शैक्षिक रूपेण पश्चवर्तिने क्षेत्राय प्राथमिकताम् प्रदाय अग्रे वर्धितव्यम्। अछाम जनपदस्य साफे बगर स्थाने ह्य आयोजिते सत्ता गठबन्धनस्य कार्यक्रमे असौ वर्तमानम् गठबन्धनम् निर्वाचनानन्तरम् अपि स्थास्यतीति विश्वसन् अवदत् तदनन्तरम् समग्र देशस्य विकासस्य स्वरूपम् निर्मास्यते। सर्वोच्च न्यायालयेन लैंगिक परिचयस्य पृथक भवनस्य कारणात् तृतीय लिंगीनाम् जनानाम् नाम्नाम् समानुपातिक पक्षस्य अन्तरसूचितः अपाकरणस्य निर्णयम् तत्कालम् न क्रियान्वेतुम् अन्तरिमादेशः प्रदत्तोऽस्ति। न्यायाधीशस्य डाक्टर आनन्द मोहन भट्टराई इत्यस्य एकल न्यायपीठेन ह्य निर्वाचनायोगस्य विषयममुम् न क्रियान्वेतुम् अन्तरिमादेशः प्रदत्तोऽस्ति। आयोगेन अन्तरसूच्याम् नागरिकतायाञ्च लैंगिक परिचयस्य पृथक भवनस्य कारणेन प्रतिनिधिसभायाः सप्तदश प्रदेश सभानां च विंशतिश्चेति कृत्वा समग्रतः सप्तत्रिंशतः प्रत्याशीनां नामानि समानुपातिक पक्षस्य अन्तरसूचितः अपाकृतानि आसन्। अधिकार दुरूपयोगानुसन्धानायोगेन मध्य पश्चिमाञ्चल विश्वविद्यालयस्य मानविकी सामाजिक शास्त्र संकायस्य संस्थानाध्यक्ष कार्यालयस्य आंग्ल भाषा विषयस्य विज्ञस्य विनय कुमार दासस्य परीक्षा समितेः संयोजकस्य सहायक संस्थानाध्यक्षस्य कमलेश डीसी इत्यस्य च विरूद्धे ह्य काष्ठमण्डपस्थे विशेष न्यायालये भ्रष्टाचार विषयकं न्यायिक प्रकरणं पञ्जीकारितं वर्तते। प्रत्याशीनां चयने अनियमितता वितेति निगद्य अनयोर्विरूद्धे आरोपपत्रमिदं पञ्जीकारितं वर्तते। विभिन्नानां विषयाणाम् आंशिकानुबन्ध सेवयोः उपप्राध्यापक पदस्य विज्ञापनस्य सन्दर्भे आंग्लभाषा विषयस्य विज्ञेन विजय कुमार दासेन उत्तर पुस्तिका परीक्षणस्य क्रमे अंक प्रदानावधौ अनुत्तीर्णः प्रत्याशिनः उत्तीर्णाः विहिताः उत्तीर्णानां प्रत्याशिनाम् उत्तर पुस्तिकासु दत्तान् अंकान् भूयो भूय संशोध्य न्यूनीकृत्य च अनुत्तीर्णाः कारिताः इति दृष्टमिति आरोपपत्रे उल्लिखितं वर्तते। एवमेव परीक्षा समितेः संयोजकेन सहायक संस्थानाध्यक्षेण कमलेश डीसी इत्यनेन आंग्ल भाषा विषयस्य सम्परीक्षण समितेः पक्षतः उत्तर पुस्तिकानां सम्परीक्षणस्य दायित्व वहनस्य क्रमे विज्ञैः भूयो भूय प्रदत्तानां अंकानां परिवर्तनं संशोधनं च विहिते इति स्वीकृतमिति आयोगेन आरोपितं वर्तते। नेपाली कांग्रेस दलेन दलस्य आधिकारिक प्रत्याशीभ्य असहयोगकर्तारः पञ्चजनाः दण्डिताः सन्ति इति समाचारः।